रजताभाय विद्महे भृगुसुताय धीमहि तन्नः शुक्रः प्रचोदयात्। अस्य श्रीशुक्रकवच महामन्त्रस्य भरद्वाज ऋषिः अनुष्टुप्छन्दः शुक्रो देवता ह्रां बीजम् ह्रीं शक्तिः गुरूं कीलकम् मम शुक्रग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः। शुक्रम् चतुर्भुजम् देवम् साक्षमालाकमण्डलम् दण्डहस्तम् च वरदम् दुतिजालसुशोभितम् शुक्लाम्बरधरम् पूज्यम् शुक्लबाल्यानुलेपनम् वज्राभरणसंयुक्तम् किरीटमकुटोज्ज्वलम् श्वेतवाहरथारूढम् मेरुम् यान्तम् प्रदक्षिणम् पञ्चाश्रमण्डलगतम् पद्मस्तम् चिन्तयाम्यहम् मृणालकुन्देन्दुपयोहिमप्रभम् सिदाम्बरम् स्निग्धवलक्षमालिनम् समस्तशास्त्रश्रुतितत्त्वदर्शनम् ध्यायेत् कविम् वाञ्छितवस्तुसिद्धये। शिरो मे भार्गवः पातु कालम् पातु ग्रहाधिपः नेत्रे दैत्यगुरुः पातु श्रोत्रे श्रीचन्दनद्युतिः पातु मे नासिकाम् काव्यो वदनम् दैत्यवन्दितः रसनामुशनाः पातु कण्ठम् श्रीकण्ठभक्तिमान् भुजो तेजो निधिः पातु वक्षो योगविदाम्बरः रक्षमालाधरो रक्षेत् कुक्षिम् मे च कृपाकरः कलिम् मे पातु विश्वात्मा शक्तिनी सर्वपूजितः जानुनीतु भृगः पातु लङ्घे मे महताम्बरः गुल्फो गुरुनिधिः पातु पादो मे पाण्डराम्बरः सर्वाण्यङ्गानि मे पातु शुक्रः कविरहर्निशम्। ययिदम् कवचम् दिव्यम् परेत् श्रद्धा समन्वितः न तस्य जायते पीडा भार्गवस्य प्रसादतः।